उद्गच्छतस्तवकरात् अमृतं हरत्सु दैत्येषु तान् अशरणान् अनुनीय देवान् सद्यस्थिरो दधिथ देव भवत्प्रभावात् उद्यत्स्वयूथ्यकलहाः दितिजा बभूवुः श्यामां रुचापि वयसापि तनुं तदानीं प्राप्तोऽसि तुङ्गकुचमण्डलभङ्गुरां त्वं पीयूषकुम्भकलहं परिमुच्य सर्वे तृष्णाकुलाः प्रतिययुः तुदुरो जकुम्भे का त्वं मृगाक्षि विभजस्व सुधाम् इमाम् इति आरूढरागविवशान् अभियाचतो मून् विश्वस्यते मयि कथं कुलटास्मि दैत्याः इत्यालपन्नपि सुविश्वसितान् अतानीः मोदात् सुधाकलशं येषु ददत्सु सा त्वं दुश्चेष्टितं मम सहध्वम् इति ब्रुवाणा पङ्क्तिप्रभेदविनिवेशित देवदैत्या लीलाविलासगतिभिः समदास्सुधां ताम् अस्मासु इयं प्रणयिनीति असुरेषु तेषु जोषं स्थितेषु अथ समाप्य सुधां सुरेषु त्वं भक्तलोकवशगः निजरूपमेत्य स्वर्भानुम् अर्धपरिपीतसुधं व्यलावीः त्वत्तः सुधाहरणयोग्यफलं परेषु दत्त्वा गते त्वयि सुरैः खलु ते व्यघृण्णन् घोरेथ मूर्च्छतिरणे बलिदैत्यमाया व्यामोहिते सुरगणे त्वम् इहा विरासीः त्वं कालनेमिमथ मालिमुखान् जघन्थ चक्रो जघान बलिजम्भवलान् सपाकान् शुष्कार्द्रदुष्करवधे नमुचौचलूने फेणेन नारदगिरा न्यरुणो रणं त्वं योषावपुः तनुजमोहनम् आहितं ते श्रुत्वा विलोकनकुतूहलवान् महेशः भूतैः समं गिरिजया च गतः पदं ते स्तुत्वा अब्रवीदभिमतं त्वमथो तिरोधाः आरामसीमनि च कन्दुकघातलीला लोलायमाननयनां कमनीं मनोज्ञां त्वामेष वीक्ष्य विगळद्वसनां मनोभूवेगात् अनङ्गरिपुरङ्गसमालिलिङ्ग भूयोऽपि विद्रुतवतीम् उपधाव्य देवः वीर्यप्रमोक्षविकसत्परमार्थबोधः त्वन्मानितस्तव महत्त्वम् उवाच देव्यै तत्तादृशस्त्वम् अव वातनिकेतनाथ ओं तत्सदिति श्रीमन्नारायणीये एकोनत्रिंशं दशकं समाप्तं श्रीहरये नमः रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।